विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहित पीवरोरुभिः विभिद्यमाना विससार सारसान् उदस्य तीरेषु तरङ्गसंहतिः विगाढेति प्रयत्नेन संवाहिताः सञ्चारिताः पीवराः स्थूलाः उरवः याभिः ताभिः रमणीभिः अम्भसि विगाढमात्रे प्रविष्टे एव सति सुप्सुपेति समासः मात्रं कार्ष्णियेव धारणे इत्यमरः विभिद्यमाना स्वयं विशीर्यमाणा कर्मकर्तरि शानच् तरङ्गसंहतिः तीरेषु सारसान् पक्षिविशेषान् सारसो मैथुनीकामी गोनर्दः पुष्कराह्वयः इति यादवः यद्वा सारसान् हंसान् चक्राङ्गः सारसो हंसः इति शब्दार्णवे उदस्य उत्सार्य विससार वितस्तार शिलाघनैर्नाकसदामुरस्थलैः बृहन्निवेशैश्च वधूपयोधरैः तटाभिनीतेन विभिन्नवीचिना ऋषेव भेजे कलुषत्वमम्भसा शिलेति शिलावत् घनैः कठिनैः नाकसदां गन्धर्वाणाम् उरस्थलैः बृहन्निवेशैः महासंस्थानैः अतिस्थूलैः इत्यर्थः वधूपयोधरैश्च तटम् अभितः नीतेन प्रापितेन अत एव विभिन्नवीचिना भग्नोर्मिणा अम्भसा कर्त्रा ऋषेव इति हेतूत्प्रेक्ष कलुषत्वम् आविलत्वम् मनः क्षोभश्च ध्वन्यते भेजे कर्मणि लिट् यथा कश्चित् मृदुस्वभावः केनचित् कठिनादिना साङ्गभङ्गम् ताडयित्वा निष्कासितः क्षुभ्यति तद्वदिति भावः कलुषत्वम् इत्यत्र वाच्यप्रतीयमानयोः अभेदाध्यवसायः अन्यथा शुद्धवाच्यस्य आविलत्वस्य रोषहेतुकत्वात् उत्प्रेक्षानुविधानात् इति विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः विधूतेति विधूताः विक्षिप्ताः केशाः यैस्ते परिलोलिताः विलोलिताः स्रजः यैस्ते प्रविलुप्तचन्दनाः प्रमृष्टाङ्गरागाः अतिप्रसङ्गात् अविच्छेदात् सुराङ्गनानां विहितागसः कृतमण्डनखण्डनरूपापराधाः अत एव ऊर्मयः तरङ्गाः सभयाः इव स्त्रीभ्यः भीताः इव मुहुः प्रकम्पम् ईयुः स्वाभाविकस्य कम्पस्य भयहेतुकत्वम् उत्प्रेक्ष्यते यद्वा सुराङ्गनानां विधूतकेशाः इत्यादि योजना सापेक्षत्वेऽपि गमकत्वात् समासः स्त्रीसङ्ग्रहणसाहसम् अपराधः भयन्तु राजादिभ्य इति विपक्षचित्तोन्मथना नखव्रणाः तिरोहिता विभ्रममण्डनेन ये हृतस्य शेषानिव कुङ्कुमस्य तान् विकत् तिष्ठनीयान् दधुरन् यथा स्त्रियः विपक्षेति विपक्षस्य सपत्नीजनस्य चित्तानाम् उन्मथनाः व्यथकाः इत्यर्थः बहुलग्रहणात् कर्तरि ल्युट् ये नखव्रणाः नखक्षतानि व्रणोस्त्रियाम् इत्यमरः विभ्रमस्य सौन्दर्यस्य मण्डनम् तादर्थ्येऽपि अश्वघासादिवत् षष्ठीसमासः न तु चतुर्थीसमासः यूपदार्वादिवत् प्रकृतिविकाराभावादिति तेन कुङ्कुमलेपनादिना तिरोहिताः छन्नाः हृतस्य क्षालितस्य कुङ्कुमस्य व्यञ्जकत्वेन शेषानिव अवशिष्टलेशानिव स्थितानिति उत्प्रेक्षा विकत्थनीयान् भर्तृवाल्लभ्यस्य व्यञ्जकत्वेन श्लाघनीयान् तान् नखव्रणान् स्त्रियः अन्यथा दधुः प्रकाशं दधुः इत्यर्थः सरोजपत्रेनु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने शिरोरुहास्विन्नत पक्ष्मसन्ततेः द्विरेफवृन्दं नु निशब्दनिश्चलम् अगूढहासस्फुटदन्तकेसरम् मुखं स्विदे तद्विकसं नु पङ्कजम् इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः सरोजेति अगूढेति च अमू पुरोवर्तिनी विलीनषट्पदे संसक्तभृङ्गे सकनीनिकत्वम् अक्ष्णोः अर्थसिद्धमित्युपमानम् विशिष्यते सरोजपत्रेनु यद्वा विलोलदृष्टेः चञ्चलाक्ष्याः विलोचने स्वित् नु स्विच्छब्दौ वितर्के किञ्च नतपश्मसन्ततेः चञ्चलाक्ष्याः शिरोरुहाः स्वित् निशब्दम् नीरवञ्च तन्निश्चलञ्च तत् द्विरेफवृन्दं नु किञ्च अगूढहासः व्यक्तस्मितं तेन स्फुटाः दन्ताः केसराः इव दन्तकेसराः यस्य तत् मुखं स्वित् यद्वा विकसत्पङ्कजं नु इति इत्थं संशयेनेति शेषः नलिनीवने प्रलीनां निगूढां सखीं योषितः सुचिरेण अतिविलम्ब्य विदाम्बभूवुः विविदुः उषविदजागृभ्योऽन्यतरस्याम् इति विकल्पात् आम्प्रत्ययः अत्र युग्मे निश्चयान्तसन्देहालङ्कारः प्रियेण सङ्ग्रथ्य विपक्षसन्निधौ उपाहितां वक्षसि पीवरस्तने स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणानवस्तुनि प्रियेणेति काचित् प्रियेण सङ्ग्रथ्य स्वयमेव रचयित्वा विपक्षसन्निधौ सपत्नीजनसमक्षं पीवरस्तने वक्षसि उपाहितां स्रजं मालां जलाविलां मृदितामपि इत्यर्थः तां न विजहौ न तत्याज न च निर्गुणायां तत्र का प्रीतिरिति वाच्यम् इति अर्थान्तरन्यासेन आह गुणाः प्रेम्णि वसन्ति वस्तुनि न वसन्ति हि यत् प्रेमास्पदं तदेव गुणवत् अन्यत्तु गुणवदपि निर्गुणमेव प्रेम तु न वस्तुपरीक्षाम् अपेक्षते इति भावः असंशयं न्यस्तमुपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम् हृतेऽपि तस्मिन् सलिलेन शुक्लताम् निरासरागो नयनेषु न श्रियम् असंशयमिति स्त्रीणां नेत्रशोभार्थम् अञ्जनधारणम् अम्बुविहारोपगमात् रक्तवर्णत्वञ्च अक्ष्णां ततः शुक्लत्वतिरोधानञ्च निश्चितमिति उत्प्रेक्ष्यते रमणीभिः यदञ्जनं न्यस्तं तदिति शेषः यत्तदोः नित्यसम्बन्धात् तदञ्जनम् उपान्तयः रक्ततां रोद्धुं प्रतिबद्धुमेव न्यस्तम् न तु शोभार्थमित्यर्थः अन्यथा रागाभिव्याप्त्या शुक्लत्वतिरोधानं स्यात् इत्यर्थः असंशयम् इति उत्प्रेक्षाव्यञ्जकम् संशयस्यापि अभावः नात्र संशयः अस्तीत्यर्थः अर्थाभावे अव्ययीभावः कुत एतदिति चेत् यतः तस्मिन् अञ्जने सलिलेन हृते क्षालिते सत्यपि रागः पूर्वोक्त एव उपान्तरक्तता किन्तु प्रतिबन्धाभावात् अभितः व्याप्त्येति आशयः नयनेषु शुक्लतां निरास निरस्तवान् अस्य तेः लिट् श्रियं शोभां तु न निरास अतः शुक्लत्वविरोधि रागनिरोधार्थमेव इदमञ्जनं स्यात् न तु शोभार्थम् तस्याः तदभावेऽपि सद्भावादित्यर्थः अञ्जनापगमेऽपि तन्नयनानां राग एव अलङ्कारः अभूदिति भावः अत्र अञ्जनन्यासम् अनूद्य तस्य शोभार्थत्वनिषेधेन रागरोधार्थत्वोत्प्रेक्षणम् उदितम् उत्तरार्धे तस्यैव समर्थनात् एवम् उपान्तरक्ततां रोद्धुं यदञ्जनं न्यस्तम् इत्येकान्वये विध्यनुवादविरोधः स्यात् द्युतिं वहन्तो वनितावतंसकाः हृतः प्रलोभादिव वेगिभिर्जलैः उपप्लुतास्तत्क्षणशोचनीयताम् च्युताधिकाराः सचिवा इवाययुः द्युतिमिति द्युतिं शोभां तेजश्च वहन्तः वेगिभिः जविभिः जलैः अग्नैश्च डलयोः अभेदात् जलं गोकवले नीरे ह्रीबेरे च जडेन्यवत् इति विश्वः प्रलोभात् मोहात् हृताः गृहीताः उपप्लुताः मृदिताः यद्वा कर्तरि तः प्लवमानाः इत्यर्थः अन्यत्र धनग्रहणबन्धनादिना पीडिताः वनितावतंसकाः च्युताधिकाराः भ्रष्टाधिकाराः सचिवाः इव तत्क्षणं शोचनीयताम् आययुः प्रापुः विपत्रलेखा निरलक्तकाधराः निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् निरीक्ष्य रामा बुबुधे नभश्चरैः अलङ्कृतं तद्वपुषैव मण्डनम् विपत्रेति विगताः पत्रलेखाः तिलकविशेषाः यासां ताः विपत्रलेखाः निरलक्तकाः क्षालितरागाः अधराः यासां ताः निरञ्जनानि अक्षीणि यासां ताः निरञ्जनाक्षीरपि बहुव्रीहौ सख्यक्ष्णोः स्वाङ्गात् शच् षिद्गौरादिभ्यश्च इति ङीष् तथापि श्रियं बिभ्रतीः शोभाकारणाभावेऽपि शोभमाना इति विभावनालङ्कारः रामाः निरीक्ष्य नभश्चरैः गन्धर्वैः तासां वपुषा एव मण्डनम् अलङ्कृतम् न तु मण्डनेन तद्वपुः इति अक्षरार्थः इति बुबुधे ज्ञातम् कर्मणि लिट् स्वभावरमणीयानां किमलङ्करणैः इति भावः तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनी जनः यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टिश्च विपक्षयोषिताम् तथेति विलासिनीजनः पूर्वं जलविहारात् प्राक् प्रियानुरागेण कृतः भूषणेषु आदरः आसक्तिः येन सः अनुरक्तप्रियत्वात् सम्यक् प्रसाधितः सन्नपि इत्यर्थः प्रियस्य अनुरागेण च विपक्षयोषितां सपत्नीनां दृष्टीः चक्षूंषि तथा न ददाह न दुःखी चकार यथा जलार्द्रः सन् नखशब्देन नखक्षतानि लक्ष्यन्ते तान्येव मण्डनं तस्य श्रिया तत्कृतशोभया इत्यर्थः विपक्षयोषितां सपत्नीनां दृष्टीः चक्षूंषि यथा ददाह तापयामास मण्डनान्तरादपि नखमण्डनानुरागादपि तदनुभाव एव सपत्नीनां दुःखहेतुरिति भावः जलार्द्रः ददाहेति विरुद्धकार्योत्पत्तिरूपः विषमालङ्कारः विरुद्धकार्यस्योत्पत्तिः यत्रानर्थस्य वा भवेत् विरूपघटना वा स्यात् विषमालङ्कृतिस्त्रिधा इति लक्षणात् शुभाननाः साम्बुरुहेषु भीरवः विलोलहाराश्च लफेन पङ्क्तिषु नितान्तगौर्यो हृतकुङ्कुमेश्वलम् नलेभिरेताः परभागमूर्मिषु शुभेति शुभाननाः विलोलहाराः नितान्तगौर्यः अरुणाङ्ग्यः गौरोरुणे सिते पीते इति वैजयन्ती भीरवः ताः स्त्रियः साम्बुरुहेषु चलाः फेनपङ्क्तयः येषु तेषु हृतानि कुसुमानि यैः तेषु कुङ्कुमसङ्क्रमारुणेषु इत्यर्थः ऊर्मिषु विषयेषु अलम् अत्यर्थम् परभागं गुणोत्कर्षं न लेभिरे परभागो गुणोत्कर्षः इति यादवः तासाम् ऊर्मीणाञ्च अरुणत्वादिगुणसाम्यात् न कश्चिद्विशेषः लक्ष्यते इत्यर्थः अत एव सामान्यालङ्कारः सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता इति लक्षणात् शुभाननत्वसाम्बुरुहत्वाद्युभयविशेषणानां क्रमेण उभयस्मिन् समन्वयात् यथासङ्ख्यालङ्कारश्च यथासङ्ख्यं क्रमेणैव क्रमिकाणां समन्वयात् इति काव्यप्रकाशे लक्षणात् अनयोः अङ्गाङ्गिभावेन सङ्करः ह्रदाम्भसिव्यस्तवधूकराहते రవం మృదంగధ్వనిధీరముజ్జతి ముహుస్తనైస్తాళ సమం సమాదదే మనోరమం నృత్యమివ ప్రవేపితం హ్రదేతి వ్యస్తాభ్యాం విపర్యాసితాభ్యాం వధూకరాభ్యాం ఆహతే ఏకేన కరేణ ఉత్సార్య అన్యేన తాడితే ఇత్యర్థః హ్రదాంభసి మృదంగధ్వనివత్ ధీరం గంభీరం రవం ఉజ్జతి సతి తథా ధ్వనతి సతీత్యర్థః ముహుః స్తనైః తాళః గీతవాద్యనృత్యానాం కాలపరిచ్ఛేదః తాళః కాలక్రియమానం ఇత్యమరః తస్య సమం అనురూపం మనోరమం నృత్యమివ ప్రవేపితం ప్రకంపః భావేక్తః సమాదదే స్వీకృతం ఉపమాలంకారః శ్రియాః సద్భిః కమలాని సస్మితైః అలంకృతాంబుః ప్రతిమాగతైర్ముఖైః కృతానుకూల్యా సురరాజయోషితాం ప్రసాదసాఫల్యమవాప జాహ్నవీ శ్రియేతి శ్రియా శోభయా కమలాని హసద్భిః కమలసదృశైః ఇత్యర్థః హసతీర్షత్యసూయతి ఇతి దండినా సదృశపర్యాయపరాః ఉక్తాః సస్మితైః ప్రతిమాగతైః ప్రతిబింబగతైరిత్యర్థః ప్రతిమానం ప్రతిబింబం ప్రతిమా ఇత్యమరః ముఖైః అలంకృతాని అంబూని యస్యాస్సా కించ సురరాజయోషితాం కృతం ఆనుకూల్యం విహారాద్యుపకారః యయాసా ఇత్థం యోషిద్భిః ఉపకృతా స్వయంచ తాసాం ఉపచికీర్షుః జాహ్నవీ గంగా ప్రసాదస్య స్వచ్ఛత్వస్య సాఫల్యం అర్థగౌరవవత్ షష్ఠీ సమాస నిర్వాహః అవాప అప్రసన్నాంభసి విహారబింబగ్రహణయోః అసంభవాత్ ఇత్యర్థః స్వచ్ఛా ఏవ హి పరైః ఉపక్రియంతే స్వయంచ ఉపకుర్వతే తేషామితి భావః కృతానుకారాః ఇతి పాఠే అనుకారః అనుకూలకరణం ఉపకార ఇత్యేవం వ్యాఖ్యేయం అత్ర జాహ్నవీ విశేషణపదార్థస్య సాఫల్యం ప్రతి హేతుత్వాత్ కావ్యలింగమలంకారః పరిస్ఫురన్మీన విఘట్టితోరవః సురాంగనాస్త్రాస విలోలదృష్టయః ఉపాయయుః కంపితపాణిపల్లవాః సఖీజనస్యాపి విలోకనీయతాం పరీతి పరితః స్ఫురద్భిః వివర్తమానైః మీనైః విఘట్టితాః ఊరవః యాసాం తాః అత ఏవ త్రాసవిలోలదృష్టయః భయవికసన్నేత్రాః కంపితపాణిపల్లవాశ్చ సురాంగనాః సఖీజనస్యాపి విలోకనీయతాం ఉపాయయుః కిముత ప్రియజనస్యేతి భావః స్వభావోక్తిరలంకారః